नमत्सर्वेभ्यः अद्य छन्दो वर्गस्य षष्ठः पाठः अस्मिन् वर्गे वयम् उपेन्द्रवज्रवृत्तस्य लक्षणम् उदाहरणानि च जानीमः गतवर्गे इन्द्रवज्र इति छन्दसः विषये ज्ञातवन्तः स्यादिन्द्रवज्रा यदितौ जगौ गः त त ज गुरुद्वयम् अस्ति चेत् इन्द्रवज्रा उपेन्द्रवज्रवृत्तम् इन्द्रवज्रवृत्तेन सह प्रायेण तुल्यं भवति अत्यन्तं सदृशं भवति इन्द्रवज्रायाः उपेन्द्रवज्रायाः लक्षणम् अस्ति उपेन्द्रवज्रा जतजास्ततो गौ पुनः वदामि उपेन्द्रवज्रा जतजास्ततो गौ इति वृत्तस्य लक्षणं तत्र लघु गुरु कृत्वा पश्यामः उ इति लघु वर्णः ते गुरुः न्द्र लघुः व ह्रस्वः अग्रे संयोगः अस्ति ज्रा ज त जा त तो गौ गणविभागं कुर्मः तत्र प्रथमः मध्यगुरुः भजसा यान्ति गौरवं भज जगणः अन्त्यलघुः यरता त तगणः पुनः मध्य गुरुः जगणः ग ग उपेन्द्रवज्र ज त जाः ज त जाः जगण तगण जगणाः ततः तदनन्तरं गौ इत्युक्ते गुरुद्वयं ज त जगणाः गुरुद्वयम् अस्ति चेत् उपेन्द्रवज्रा छन्दः उपेन्द्रवज्रायामपि प्रतिपादम् एकादश अक्षराणि भवन्ति ज त जगणाः गुरुद्वयम् इन्द्रवज्रायाः लक्षणं किम् आसीत् स्यादिन्द्रवज्रा यदितौ जगौ गः त त ज गुरुद्वयम् अस्ति चेत् इन्द्रवज्रा ज त ज गुरुद्वयम् अस्ति चेत् उपेन्द्रवज्र अतः प्रथमगणः इन्द्रवज्रायां तगणः अत्र जगणः तत्रापि कः भेदः जगणः इत्युक्ते मध्यगुरुः तगणः इत्युक्ते अन्त्यलघुः स्वत्रापि पश्यन्ति चेत् गुरुः गुरुः लघुः लघुः प्रथमवर्णे एव भेदः प्रथमः वर्णः लघु अस्ति चेत् उपेन्द्रवज्र भवति प्रथमः वर्णः गुरु अस्ति चेत् इन्द्रवज्र भवति अन्यत् सर्वं समानं भवति इन्द्रवज्रायाम् उपेन्द्रवज्रायां च एकम् उदाहरणं पश्यामः बहु प्रसिद्धः श्लोकः त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव अत्र प्रथमपादस्य प्रस्तारं कुर्मः त्व इति लघुः मेव माता च पिता त्व मे व अत्र पादस्य अन्ते मया लघु गुरु कथनसमये उक्तमासीत् कदा कदा ह्रस्वस्वरः गुरुः भवति अग्रे अनुस्वारः अथवा विसर्गः अस्ति चेत् गुरु भवति अग्रे संयोगः अस्ति चेत् गुरु भवति पुनश्च पादस्य अन्ते अस्ति चेत् ह्रस्वः चेदपि गुरुः भवति वृत्तस्य नियमम् आश्रित्य इति अतः इदमपि गुरुः अग्रे संयोगः अस्ति अतः तदपि आश्रित्य गुरु इति वक्तुं शक्यते उभयथापि अयं गुरुः त्वमेव माता च पिता त्वमेव सो मध्यगुरुः जगणः अन्त्यलघुः, तगणः मध्यगुरुः, जगणः गुरुद्वयम्। उपेन्द्रवज्राजतजास्ततो गौ लक्षणसमन्वयः भवति। अन्यमेकं श्लोकं पश्यामः। मुकुन्दमाला इति प्रसिद्धं स्तोत्रमस्ति, कुलशेखर आळ्वार् निर्मितं। तस्य स्तोत्रस्य कश्चन श्लोकः, मुकुन्दमूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम्, अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेस्तु भवत्प्रसादात्। अत्र पश्यामः मुकुन्द, सो मु लघुः, कुन्द कु इति अग्रे संयोगः अस्ति अतः गुरुः, द इति लघुः, मूर्ध्ना प्र नि पत्य प अग्रे संयोगः अस्ति अतः गुरुः, य इति लघुः, याचे मुकुन्द मूर्ध्ना प्रणिपत्य। सो ज त ज गुरुद्वयम्। इन्द्रवज्र उपेन्द्रवज्र इति वृत्तद्वयमपि काव्येषु अत्यन्तं प्रसिद्धमस्ति। उपेन्द्रवज्र वृत्ते प्रतिपादम् एकादश अक्षराणि भवन्ति, ज त ज गणाः, अन्ते गुरुद्वयं च भवति। लक्षणमस्ति उपेन्द्रवज्र जतजास्ततो गौ। अभ्यासपत्रे दत्तेषु वाक्येषु प्रस्तारं विलिख्य कुत्र कुत्र उपेन्द्रवज्र वृत्तमस्ति इति अवगच्छन्तु।